इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झाः। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी त्रिदिवसीय सेशेल्स यात्रार्थम् अद्य प्रातः प्रतिष्ठते। सेशेल्स देशस्य स्वर्ण जयन्ती राष्ट्रिय दिवस समारोहे सः विशिष्टातिथिरूपेण उपस्थितः भविष्यति। पञ्चदशोत्तर द्विसहस्रतम वर्षात् अनन्तरम् इयं तस्य प्रथमा सेशेल्स देशीया यात्रा भविष्यति। विदेश मन्त्रालयेन सूचितं यत् भारतीय सशस्त्र सेनायाः एकं दलं भारतीय नौसेनायाः नौपोत युगलं च अस्मिन् उत्सवे सहभागं करिष्यन्ति। यात्राकाले प्रधानमन्त्री द्विपक्षीय सहयोगस्य सर्वेषां पक्षाणां समीक्षां कर्तुं परस्परहितस्य क्षेत्रीयेषु अन्ताराष्ट्रियेषु च विषयेषु सविस्तर विचारणार्थं सेशेल्स देशस्य राष्ट्रपतिना डॉक्टर पैट्रिक हर्मिनी इत्यनेन सह संवादं करिष्यति। केन्द्रीयः गृहमन्त्री अमितशाहः अद्य गुजराते भारत टैक्सीति सहकारिता धृत भाटकयान सेवायाः शुभारम्भं करिष्यति। सहकारिता क्षेत्रस्य वरिष्ठाधिकारिणः विभिन्नानां संस्थानानां प्रतिनिधयः भारत टैक्सी सम्बद्धाः चतुस्सहस्राधिकाः सारथीति चालकाः च अस्मिन् कार्यक्रमे सहभागं करिष्यन्ति। आदौ अहमदाबाद सूरत वडोदरेत्यादिषु गुजरातस्य चतुर्दशसु जनपदेषु अस्याः सेवायाः आरम्भः भविष्यति। आगामि मासपर्यन्तं राज्ये सर्वत्र सेवाविस्तारस्य योजना अस्ति। गृहमन्त्री अमितशाहः गतवासरे मादकद्रव्याणि विरुध्य संयुक्तसंघर्षाय आहूतवान्। सः अवदत् यत् मादकद्रव्याणां प्रकोपः राष्ट्रियसुरक्षायै सामाजिकस्थिरतायै आर्थिकहिताय यूनां देशस्य च भविष्याय भयं जनयति। सः आध्यात्मिकनेतॄन् यूनः मातृशक्तिं च अस्य संघर्षस्य कृते एकस्मिन् मञ्चे आगत्य कार्यं कर्तुम् आग्रहीतवान्। श्रीशाहः नवदिल्ल्यां मादकद्रव्य विषयक संयोजनकेन्द्रस्य दशमशीर्षस्तरीय सभां सम्बोधयन् एवम् अभ्यभाषत।
मादक पदार्थों की समस्या केवल कानून व्यवस्था और सार्वजनिक स्वास्थ्य का मुद्दा नहीं है, नार्को टेररिज्म इको सिस्टम भी बन चुकी है। तो हमारी देश की आंतरिक सुरक्षा के लिए, हमारे देश के अर्थतंत्र की सुरक्षा के लिए और हमारे देश की युवा पीढ़ी के भविष्य के लिए ये हमारे लिए बहुत जरूरी है कि हम इस पर संपूर्ण विजय प्राप्त करें।
उत्तर प्रदेश आरक्षिबलेन श्री राम जन्मभूमि तीर्थ क्षेत्र न्यासस्य दानराशि वञ्चना प्रकरणे प्रथम सूचना प्रतिवेदनाधारेण अष्टौ जनाः निगडिताः। इदं तावत् प्राथमिकं प्रतिवेदनं मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य निर्देशेन विशेष निरीक्षण दलस्य अनुशंसानन्तरं पञ्जीकृतम् आसीत्। इदं प्रकरणं श्रीरामजन्मभूमितीर्थक्षेत्रन्यासेन प्राप्तानाम् उपहाराणां दानानां च वञ्चनासम्बद्धारोपाणां प्रकाशनानन्तरं सम्मुखम् आगतम्। न्यासस्य अनुरोधेन मुख्यमन्त्रिणा योगिना आदित्यनाथेन एकस्य विशिष्टनिरीक्षणदलस्य संघटनाय आदेशः प्रदत्तः। भारतीयर्तुविज्ञानविभागेन अनुमितं यत् सोमवासरं यावत् दिल्ली पंजाब हरियाणा चण्डीगढ पूर्वीयोत्तरप्रदेश राजस्थान मध्यप्रदेश महाराष्ट्रोत्तराखण्डेषु लक्षद्वीपस्य कतिपयक्षेत्रेषु च तडित्पातस्य सम्भावना अस्ति। कोलकाता दुर्घटनायां आहतानां संख्या एधित्वा षोडश संजातास्ति। तत्र व्रणितानां उपचारः एसएसकेएम चिकित्सालये प्रवर्तते इति वार्ताः।